ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसि जायतामास्मिन् राष्ट्रे राजन्यति सव्यशूरो महारथो जायताम् दोर्धेनुर्वोढा नट्वा नाशुः सत्यः पुरन्धर्योषा जिष्णो रथे सदेयो युवास्य जमानस्य वीरो जायतान्निकामे निकामेन पर्जन्यो वरिषतु हरिण्यो न ओषधयः पच्यन्तायोगक्षेमो नः कल्पना
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् युवा गुहि सजीनाय युवागो स्मजीना भूया बाबा जदाम्ना त्वमग्न पुरुषंसाय वाघते स्पार्हयद्रेग्नः परमम् मनोषि तत् आर्धस्य चिप्रपातिरुच्यसे पिता प्रपाकम् शास्य प्रदिशो विदुष्टरः ऋतस्य प्रेषा ऋतस्य भीतिर्विश्वायुर्विश्वे अपांसि चक्रुः यस्त्वभ्यन्दशाद्यो मा ते शिक्षात् तस्मै चिकित्वान्द्रयिन्दयस्व भद्रम् कर्णेभिशृणुयामदेवा भद्रम् पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुमांसस्तनोभिर्व्यसेम एव हि तञ्जदायुः तम् पृच्छता स जगामास वेधसचिकित्वा ईयते सान्मीयते तस्मिन् सन्ति प्रशिषस्तस्मिन् निष्ठयाः स वाचस्य शवसशुष्मिणस्पतिः इन्द्रश्रेष्ठा निद्रवीणानि देहि चित्तिन्दक्षस्य सुभगत्वमस्मे कोशम् रयीणामरिष्टिम् तनूनाम् स्वात्मानम् वाचस्सुदिनत्वमह्ना एतावो वश्म्युव्याताय जत्राः अतक्षन्धाय भो न व्याशेषम् शवस्य भो वाजम् जगानाः सत्यर्नरथ्यो अहधीतिमश्याः जन्मन् जन्मन्निहितो जातवेदाः विश्वामित्रेभिरिध्यते अजस्रः तस्य भयम् सुमतौ यज्ञियस्य अपि भद्रे सौ मनसे स्याः ऋतस्य इषुरुधः सन्ति पूर्वी ऋतस्य भीतिर्वृजिनानि हन्ति ऋतस्य श्लोकोपधिरातर्द कर्णा बुधा न शुचमानः आयोः यो देवो देवतमो जायमानः महो वाजेभिर्महद्भिश्च सुष्मैः तथा नो वज्रम् वाक्पोरुषन्तम् यामनेन रेजयत् प्रभुम ज्यायाम् समस्य यतुनस्य केतुनर्षिस्वरम् च रधियासु नामादे यादृष्मिन्धायितमापस्य या विदध्य उस्वयम् वहाथेसो अरम् करत् अग्ने पवस्वस्वपा अस्मे वर्चस्सुवीर्यम् दधद्रयिम् महिपोषम्